तस्माद्यज्ञात् सर्वहुतः अर्जस्वामानिजज्ञिरे छन्दागुंसिजज्ञिरे तस्मात् यदस्तस्मादजायत तस्मादश्वा अजायन्त एतेतो भयादतः जावोहजज्ञिरे तस्मात् तस्माज्जाता अजावयः यत्पुरुषम् यदधुः प्रतिधा व्यकल्पयन् मुखम् किमस्य कौ बाहो कामोरूपादा उच्यते ब्राह्मणस्य मुखमासीत् बाहोराजन्यः कृतः ऊरो तदस्य यद्वै स्यः पद्भ्यागुम् श्रोत्रो अजायत चन्द्रमा मनसो जातः चक्षोः सूर्यो अजायत मुखादिन्द्रश्चाग्निश्च प्राणाद्वायुरजायत नाभ्या आसीदन्तरिक्षम् शीर्ष्णोर्जौः समवर्तत पद्भ्याम् भोमिर्दिश श्रोत्रात् तथा लोकागम् अकल्पयन् वेदाहमेतम् पुरुषम् महान्तम् आदित्यवर्णम् तमसस्तु पारे सर्वाणि रूपाणि विचित्यधीरः नामानि कृत्वाभिवदनुजदासे धाता पुरस्ताद्यमुदा जहार शक्रः प्रभिद्वान् प्रतिशस्य तस्रः तमेवम् विद्वानमृत इह भवति नान्यः पन्था अयनाय विद्यते यज्ञेन यज्ञमयजन्त देवाः तानि धर्माणि प्रथमान्यासन् ते हनाकम् महिमानः सजन्ते यत्र पूर्वे साध्याः सन्ति देवाः अर्भ्यः सम्भोतः पृथिव्यैरसाच्या विश्वकर्मणः समवर्तताधि तस्य त्वष्टा विदधद्रूपमेति तत्पुरुषस्य विश्वमाजानमग्रे वेदाहमेतम् पुरुषम् महान्तम् आदित्यवर्णम् तमसः परस्तात् तमेवम् विद्वानमृत इह भवति नान्यः पन्था युध्यते जनाय प्रजापतिश्चरति गर्भे अन्तः अजायमाना बहुधा विजायते तस्य धीराः परिजानन्ति योनिम् मरीचीनाम् पदमिच्छन्ति मेधसः यो देवेभ्य आगपति यो देवानाम् पुरोहितः पूर्वो यो देवेभ्यो जातः नमार्जाय ब्राह्मये ऋजम् ब्राह्मम् जनयन्तः देवा अग्रे तदब्रुवन् यस्त्वैवम् ब्राह्मणो विद्यात् तस्य देवा असंवसे श्रीश्चले लक्ष्मीश्च पत्न्यौ अहोरात्रे पार्श्वे नक्षत्राणि रूपम् अश्विनौ यात्तम् इष्टम् मनिषाण अमुम् मनिषाण सर्वम् मनिषाण तच्छञ्जोरावृणीमहे गातुम् यज्ञाय गातुम् यज्ञपदये दैवी स्वस्तिरस्तु नः स्वस्तिर्मानुषेभ्यः ऊर्ध्वम् जिगातु भेषजम् शन्नो अस्तु द्विपदे शञ्चतुष्पदे ॐ शान्ति शान्ति शान्तिः ॐ हिरण्यवर्णाम् हरिणीम् सुवर्णरजसस्रजाम् चन्द्राम् हिरण्मयीम् लक्ष्मीम् जातवेदो ममावह ताम् महावह जातवेदो लक्ष्मीमनपगामिनीम् यस्याम् हिरण्यम् विन्देयङ्गामश्वम् पुरुषानहम् अश्वपूर्वाम् रथमध्याम् हस्तिनादप्रबोधिनीम् श्रियम् देवीमुपह्वये श्रीर्मा देवीर्जुषताम् कांसोऽस्मिताम् हिरण्यप्राकारामार्द्राञ्जुलम् वीम् वृत्ताम् तर्पयन्तीम् पद्मेष्ठिताम् पद्मवह्नाम् तामिहोपह्वये श्रियम् चन्द्राम् प्रभासाञ्जसा ज्वलन्तीम् श्रियम् लोके देवजुष्टामुदाराम् ताम् पद्मिनीमीम् शरणमहम् प्रवद्ये लक्ष्मीर्मे दृश्यताम् त्वाम् वृणे आदित्यवर्णे तपसोऽधिजातो वनस्पतिस्तव वृक्षोऽध बिल्वः तस्य फलानि तपसानुदन्तु मायान्तरायाश्च बाह्या अलक्ष्मीः उपैतु माम् देव सखः कीर्तिश्च मणिना सह प्रादुर्भूतोऽस्मि राष्ट्रेऽस्मिन् कीर्तिमुद्धिम् ददातु मे श्रुतिमादामलाम् ज्येष्ठामलक्षेर्नाशयाम्यहम् अभूतिमसमर्थिम् च सर्वाणि निर्मदमे गृहान् गन्धद्वाराम् दुराधर्षान् नित्यपुष्टाम् करीषिणीम् ईश्वरीकम् सर्वभूतानाम् तामिहोपह्वये श्रियम् मनसः काममाकोतिम् वाचः सत्यमधीमहे पशूनाकम् रूपमन्नस्य महि श्रीश्रयताम् यशः कर्दमेन प्रजा भूता मयि सम्भव कर्दम श्रियम् वासय मे कुले मातरम् पद्ममालिनीम् आपस्रजन्तस्निग्धानि चिक्लीतव समे गृहे निगदेवीम् मातरम् द्विजम् वासय मे कुले आर्द्राम् पुष्करिणीम् पुष्प्यम् सुवर्णाम् हेममालिनीम् सूर्याम् हिरण्मयीम् लक्ष्मीम् जातवेदो ममावह आर्द्राम् यः करिणीम् यष्टिम् पिङ्गळाम् पद्ममालिनीम् चन्द्राम् हिरण्मयीम् लक्ष्मीम् जातवेदो ममावह ताम् मावह जातवेदो लक्ष्मीमनपगामिनीम् यस्याम् हिरण्यम् प्रभूतम् गावो दास्योऽश्वान विन्देयम् पुरुषानहम् यश्रियप्रयदा भूत्वा जुहुयालाद्यमन्नहम् श्रियः पञ्चदशज्जम् च श्रीकामस्त तदञ्जपेत आनन्दः कर्दमश्चैव चिक्लीत इति विश्रुताः ऋषयस्ते त्रयः पुत्रा स्वयम् श्रीदेव देवता पद्मानने पद्मभूरो पद्माक्षी पद्मसम्भवे त्वम्भयस्त पद्माक्षी येन सौख्यम् लभाम्यहम् अश्वदायि च गोदायि हरदायि महाधने धनम् मे जुषताम् देवीम् सर्वकामार्थसिद्धये पुत्रपौत्रधनम् धान्यम् हस्तस्वाजा विगोरथम् प्रजानाम् भवति माता आयुष्मन्तम् करोतु माम् चन्द्राभाल्लक्ष्मीमीशानाम् सूर्याभाम् श्रियमेश्वरीम् चन्द्रसूर्याग्निसर्वाभाम् श्रीमहालक्ष्मीमुपास्महे धनमग्निर्धनम् वायुर्धनम् सूर्यो धनम् वसुः धनमिन्द्रो बृहस्पतिर्वरुणम् धनमश्नुते वैरदेयसोमम् पिबसोमम् पिबतु वृत्रः सोमम् धनस्य सोमिनो मह्यम् ददातु सोमिनी न क्रोधो न च मात्सर्यम् न लोभो न शुभामतिः भवन्त्य कृतपुण्यानाम् भक्तानाम् श्रीसोक्तम् जपेत् सदा वर्षम् सुदेविभावरिदिवो अभ्रस्य विद्युतः रोहम् सर्वबीजान्यपब्रह्मद्विषोदिः पद्मप्रिये पद्मनि पद्महस्ते पद्मालये पद्मदलाय दाक्षे विश्वप्रिये विष्णुमनोऽनुकूले त्वत्पादपद्मम् महिसन्निधत्स्व यासा पद्मासनस्था विमलकटितटे पद्मपत्राय दाक्षे कुम्भीरावर्तनाभिस्तनभरणमिता शुभ्रवस्त्रोत्तरीया लक्ष्मीर्दिव्यैर्गजेन्द्रैर्मणिगणखचितैस्माभिधाहे ब्रह्मैः नित्यं सा पद्महस्ता मम वसतु गृहे सर्वमाङ्गल्ययुक्ता लक्ष्मीं क्षीरसमुद्रराजतनयां श्रीरङ्गधामेश्वरीं दासीभूतसमस्तदेववनितां लोकैकदीपाङ्कुराम् श्रीमन्मन्दगटाक्षलब्धविभवब्रह्मेन्द्रगङ्गाधराम् त्वां त्रैलोक्यकुटुम्बीं सरसिजां वन्दे मुकुन्दप्रियाम् शुद्धलक्ष्मेर्मोक्षलक्ष्मेर्जयलक्ष्मीः सरस्वते श्रीलक्ष्मेर्वरलक्ष्मीश्च प्रसन्ना मम सर्वदा पदाङ्कुशोपाशमभीतिमुद्राङ्करैर्वहन्तीम् कमलासनस्ताम् बालार्ककोटिप्रतिभान् त्रिनेत्राम् भजेऽहमम्बाम् जगदीश्वरीन्द्राम् सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके शरण्ये त्र्यम्बके देवि नारायणि नमोऽस्तु ते महालक्ष्मी च विद्महे विष्णुपत्नी च धीमहि तन्नो लक्ष्मीः प्रचोदयात् ॐ धाता पुरस्ताद्यमुदा जहार चक्रः प्रविद्वान् प्रतिशस्यतस्रः तमेवम् विद्वानमृत इह भवति नान्यः पन्था अयनाय विद्यते सहस्रशीर्षम् देवम् विश्वाक्षम् विश्वशम्भुवम् विश्वन्नारायणम् देवमक्षरम् परमम् पदम् विश्वतः परमान्नित्यम् विश्वन्नारायणकुम्भरिम् विश्वमेवेदम् पुरुषस्तद्विश्वमुपजीवति पतिम् विश्वस्यात्मेश्वरगुम् शाश्वतगुम् शिवमच्युतम् नारायणम् महाज्ञेयम् विश्वात्मानम् परायणम् नारायणपरो ज्योतिरात्मा नारायणः परः नारायणपरम् ब्रह्मतत्त्वम् नारायणः परः नारायणपरो ध्याताध्यानम् नारायणः परः यच्च किञ्चिज्जगत्सर्वम् दृश्यते श्रूयतेऽपि वा अन्तर्बहिश्च तत्सर्वम् व्याप्य नारायणस्थितः अनन्तमव्ययम् कविगुम् समुद्रेऽन्तम् विश्वशम्भवम् पद्मकोशप्रतीकाशगुम् हृदयम् चाप्यधोमुखम् अधो निश्याविदस्यान्तेनाभ्यामुपरितिष्ठति ज्वालमालाकुलम् भाति विश्वस्यायतनम् महत् सन्ततगम् शिलाभिस्तुलम् वत्यागोधसन्निभम् तस्यान्ते सुशिरगुम् सूक्ष्मम् तस्मिन् सर्वम् प्रतिष्ठितम् तस्य मध्ये महानग्निर्विश्वार्चिर्विश्वतो मुखः सोऽग्रभग्विभजम् तिष्ठन्नाहारमजरः कविः तिर्ययोर्ध्वमधशायीरश्मयस्वस्य सन्तता सन्तापयति स्वम् देहमापादतलमस्वगः तस्य मध्ये वह्निशिखा अणीयोऽर्ध्वाव्यवस्थितः नीलतो यतमध्यस्ताद्विज्युल्लेखे बभास्वरा नीवारशोकवत्तन्वीपीताभास्वच्छणोपमा तस्याशिखाया मध्ये परमात्मा व्यवस्थितः सब्रह्मसदिवः स हरिश्चेन्द्रस्वाक्षरः परमस्वरा योपाम्बुष्पम् वेद पुष्पवान् प्रजावान् पशुवान् भवति चन्द्रमा वा अपाम्बुष्पम् पुष्पवान् प्रजावान् पशुवान् भवति य एवम् वेद योपामायतनम् वेद ఆయతనవాన్ భవతి అగ్నిర్వా అపామాయతనం ఆయతనవాన్ భవతి యోగ్నేరాయతనం వేద ఆయతనవాన్ భవతి ఆపో వా అగ్నేరాయతనం ఆయతనవాన్ భవతి ఏవం వేద యోపామాయతనం వేద ఆయతనవాన్ భవతి వాయుర్వా అపామాయతనం ఆయతనవాన్ భవతి యో వాయోరాయతనం వేద ఆయతనవాన్ భవతి ఆపో వై వాయోరాయతనం ఆయతనవాన్ భవతి య ఏవం వేద యోపామాయతనం వేద ఆయతనవాన్ భవతి అథం వై తపన్నపామాయతనం ఆయతనవాన్ భవతి యోమశ్యతపథ ఆయతనం వేద ఆయతనవాన్ భవతి ఆపో వా అమశ్యతపథ ఆయతనం ఆయతనవాన్ భవతి య ఏవం వేద యోపామాయతనం వేద ఆయతనవాన్ భవతి చంద్రమా వా అపామాయతనం ఆయతనవాన్ భవతి యశ్చంద్రమస ఆయతనం వేద ఆయతనవాన్ భవతి ఆపో వై చంద్రమస ఆయతనం ఆయతనవాన్ భవతి య ఏవం వేద యోపామాయతనం వేద ఆయతనవాన్ భవతి నక్షత్రాణి వా అపామాయతనం ఆయతనవాన్ భవతి యో నక్షత్రాణామాయతనం వేద ఆయతనవాన్ భవతి ఆపో వై నక్షత్రాణామాయతనం ఆయతనవాన్ భవతి య ఏవం వేద యోపామాయతనం వేద ఆయతనవాన్ భవతి పర్జన్యో వా అపామాయతనం ఆయతనవాన్ భవతి యః పర్జన్యస్యాయతనం వేద ఆయతనవాన్ భవతి ఆపో వై పర్జన్యస్యాయతనం ఆయతనవాన్ భవతి య ఏవం వేద యో వామాయతనం వేద ఆయతనవాన్ భవతి సంవత్సరో వా అపామాయతనం ఆయతనవాన్ భవతి యః సంవత్సరస్యాయతనం వేద ఆయతనవాన్ భవతి ఆపో వై సంవత్సరస్యాయతనం ఆయతనవాన్ భవతి య ఏవం వేద యోప్సునాభం ప్రతిష్ఠితాం వేద ప్రత్యేవ తిష్ఠతి ఇంతద్విష్ణోర్బలమాహో కాదీప్తిష్టిం పరాయణం ఏకో యద్ధారయద్దేవ వేదతీరోదసీ ఉభే వాతాద్విష్ణోర్బలమాహో అక్షరాద్దీప్తిరుచ్యతే త్రిపదాద్ధారయద్దేవ యద్విష్ణోరేకముత్తమం రాజాధిరాజాయ ప్రసంహసాహినే నమో వయం వై శ్రవణాయ కృమ్మహే సమే కామాన్ కామకామాయ మహ్యం కామేశ్వరో వై శ్రవణో దదాతో కుబేరాయ వై శ్రవణాయ మహారాజాయ నమః ఓం తద్బ్రహ్మా ఓం తద్వాయో ఓం తదాత్మా ఓం తత్సత్యం ఓం తత్సర్వం ఓం తత్పురోర్నమః అంగశ్చరది భూతేషు గుహాయాం విశ్వమూర్తిషు त्वम् यज्ञस्त्वम् वषट्कारस्त्वमिन्द्रस्त्वगम् रुद्रस्त्वम् विष्णुस्त्वम् ब्रह्मत्वम् प्रजापतिः त्वम् तदाप आभोज्योतिरथोऽवृतम् ब्रह्मभूर्भुवस्सुभरोम् अथैतम् विष्णवे चरम् निर्वपति यज्ञो वै विष्णुः यज्ञ एवान्ततः प्रतिष्ठति होत्रयोगे विष्णवे स्वाहा यज्ञाय स्वाहा प्रतिष्ठायै स्वाहेति नारायणाय विद्महे वासुदेवाय धीमहि तन्नो विष्णुः प्रचोदयात् तत्पुरुषाय विद्महे महादेवाय धीमहि तन्नो रुद्रः प्रचोदयात् ईशानः सर्वविद्यानामीश्वरः सर्वभूतानाम् ब्रह्माधिपतिर्ब्रह्मणोऽधिपतिर्ब्रह्मा शिवो मे अस्तु सदा शिवो लक्ष्मीम् क्षीरसमुद्रराजतनयाम् श्रीरङ्गधामेश्वरीम् दासीभूतसमस्तदेववनिताम् लोकैकदीपाङ्कुराम् श्रीमन्मन्दकटाक्षलब्धविभवद्ब्रह्मेन्द्रगङ्गाधराम् त्वाम् त्रैलोक्यकुटुम्बिनीम् सरसिजाम् वन्दे मुकुन्दप्रियाम् शुद्धलक्ष्मीर्मोक्षलक्ष्मीर्जयलक्ष्मीश्वरस्वती श्रीलक्ष्मीर्वरलक्ष्मीश्च प्रसन्ना मम सर्वदा वराङ्कुशोपाशमभीतिमुद्राङ्करैर्वहन्तीम् कमलासनस्ताम् बालार्ककोटिप्रतिभाम् त्रिनेताम् भजेऽहमम्बाम् जगदीश्वरीणाम् सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके शरण्ये त्र्यम्बके देवि नारायणि नमोऽस्तु ते महालक्ष्मी च विद्महे विष्णुपत्न्यै च धीमहि तन्नो लक्ष्मीः प्रचोदयात् ॐ निधनपतये नमः निधनपदान्तिकाय नमः ऊर्ध्वाय नमः ऊर्ध्वलिङ्गाय नमः हिरण्याय नमः हिरण्यलिङ्गाय नमः सुवर्णाय नमः सुवर्णलिङ्गाय नमः दिव्याय नमः दिव्यलिङ्गाय नमः भवाय नमः भवलिङ्गाय नमः शर्वाय नमः शर्वलिङ्गाय नमः शिवाय नमः शिवलिङ्गाय नमः ज्वलाय नमः ज्वललिङ्गाय नमः आत्माय नमः आत्मलिङ्गाय नमः परमाय नमः परमलिङ्गाय नमः एतत्सोमस्य सूर्यस्य सर्वलिङ्गको स्थापयति पाणिमन्त्रम् पवित्रम् सद्यो जातम् प्रपद्यामि सद्यो जाताय वै नमो नमः भवे भवेनादि भवे भवः स्वमाम् भवोद्भवाय नमः वामदेवाय नमो ज्येष्ठाय नमः श्रेष्ठाय नमो रुद्राय नमः कालाय नमः कलविकरणाय नमो बलविकरणाय नमो बलाय नमो बलप्रमथनाय नमः सर्वभूतदमनाय नमो ममोन्मनाय नमः अघोरेभ्यो धघोरेभ्यो घोरघोरधरेभ्यः सर्वेभ्यः सर्वशिर्वेभ्यो नमस्ते अस्तु रुद्ररूपेभ्यः तत्पुरुषाय विद्महे महादेवाय धीमहि तन्नो रुद्रः प्रचोदयात् ईशानः सर्वविद्यानामीश्वरः सर्वभूतानाम् ब्रह्माधिपतिर्ब्रह्मणाधिपतिर्ब्रह्मा शिवो मे अस्तु सदाशिवो। पुरुषस्य विद्मसहस्राक्षस्य महादेवस्य धीमहि तन्नो रुद्रः प्रचोदयात्। तत्पुरुषाय विद्महे महादेवाय धीमहि तन्नो रुद्रः प्रचोदयात्। तत्पुरुषाय विद्महे वक्रतुण्डाय धीमहि तन्नो दन्त्यः प्रचोदयात्। तत्पुरुषाय विद्महे चक्रतुण्डाय धीमहि तन्नो नन्दिः प्रचोदयात्। तत्पुरुषाय विद्महे महासेनाय धीमहि तन्नः षण्मुखः प्रचोदयात्। तत्पुरुषाय विद्महे सुवर्णपक्षाय धीमहि तन्नो गरुडः प्रचोदयात्। वेदात्मनाय विद्महे हिरण्यगर्भाय धीमहि तन्नो ब्रह्म प्रचोदयात्। नारायणाय विद्महे वासुदेवाय धीमहि तन्नो विष्णुः प्रचोदयात्। वज्रनखाय विद्महे तीक्ष्णदृष्ट्राय धीमहि तन्नो नारदसिंहः प्रचोदयात्। भास्कराय विद्महे महज्योतिकराय धीमहि तन्नो आदित्यः प्रचोदयात्। वैश्वानराय विद्महे लालीलाय धीमहि तन्नो अग्निः प्रचोदयात्। कात्यायनाय विद्महे कन्याकुमारि धीमहि तन्नो दुर्गः प्रचोदयात्। ॐ स्वस्ति प्रजाभ्यः परिपालयन्ताम् न्यायेन मार्गेण महीम् महिषाः। गोब्राह्मणेभ्यः शुभमस्तु नित्यम्। लोकाः समस्ताः सुखिनो भवन्तु। काले वर्षतु पर्जन्यः पृथिवी सस्यशालिनी। देशोऽयम् क्षोभरहितः। ब्राह्मणाः सन्तु निर्भयाः। अपुत्राः पुत्रिणः सन्तु, पुत्रिणः सन्तु पौत्रिणः। अधनाः सधनाः सन्तु, जीवन्तु शरदाम् शतम्। ॐ शान्ति शान्ति शान्तिः। सर्वे जनाः सुखिनो भवन्तु। हरिः ॐ। हरिः ॐ। गणानाम् त्वा गणपतिकुम् भवामहे कविम् कवीनामुपमश्रवस्तमम्। ज्येष्ठराजम् ब्रह्मणाम् ब्रह्मणस्त्वत आनश्रृण्वन्नोतिभिः सीदसादनम्। श्रीमहागणाधिपतये नमः। अस्य श्रीरुद्रस्य प्रश्नस्य अघोरऋषिः अनुष्टुप् छन्दः। सङ्कर्षणमूर्तिस्वरूपो योऽसावादित्यः परमपुरुषः स्वदेश रुद्रो देवता। अग्निक्रतुजरमायामिष्टकायागुंसतरुद्रीये जपाभिषेके विनियोगः। नमः शम्भवे च अग्निहोत्रात्मने अङ्गुष्ठाभ्यान्नमः। मयोभवेद दर्शपूर्णमासात्मने तर्जनेभ्यान्नमः। नमः शङ्कराय च चातुर्मास्यात्मने मध्यमाभ्यान्नमः। मयस्कराय च निरूढपशुबन्धात्मने अनामिकाभ्यान्नमः। नमः शिवाय च ज्योतिष्टोमात्मनेकनिष्ठिकाभ्याम् नमः शिवतराय च सर्वकृत्वात्मनेकरतलकरपृष्ठाभ्याम् नमः नमः शम्भवे च अग्निहोत्रात्मने हृदयाय नमः मयोभवे च दर्शपूर्णमासात्मने शिरसे स्वाहा नमः शङ्कराय च चातुर्मास्यात्मने शिखायै वषट् मयस्कराय च निरूढपशुबन्धात्मने कवचायहम् नमः शिवाय च ज्योतिष्टोमात्मने नेत्रत्रयाय वौषट् शिवतराय च सर्वकृत्वात्मने हस्त्राय फट् भूर्भुवस्वरोमिति दिग्बन्धः ध्यानम् आपाताळनभस्तवान्तभुवनब्रह्माण्डमाभिस्फुरत् ज्योतिष्पाटिकलिङ्गमौलिविलसत्पूर्णेन्दुवान्तामृतैः हस्तोराप्लुतमेकमीशमनिशम् रुद्रानुवाकाञ्जपन् ध्याये दीक्षितसिद्धये ध्रुवपदम् विप्रोभिषिञ्चेत् शिवम् ब्रह्माण्डम् व्याप्तदेहाभसितहिमरुचाभासमाना भुजङ्गैः कण्ठे कालाः कपर्दाः कलितशिकलाश्चण्डकोदण्डहस्राः त्र्यक्षा रुद्राक्षमालासुललितमोषशाम्भवामूर्तिभेदाः रुद्राश्रीरुद्रसूक्तप्रकटितविभवानप्रयच्छन्तु सौख्यम् ॐ नमो भगवते रुद्राय ॐ नम् नमस्ते रुद्रमन्यव उतो दैषवे नमः नमस्ते अस्तु धन्वने बाहुभ्यामुतते नमः या दैषः शिवतमा शिवम् बभूवते धनुः शिवा च रव्या यातभतया न रुद्रमृडया या ते रुद्रशिवा धनुरघोरा पापकाशिनी त्वया नस्तनुवाचन्तमया गिरिशन्ताभिजागसीः यामिषम् गिरिशन्तहस्ते बिभर्षस्तवे शिवाङ्गिरित्वदाङ्गुरुमाहिकुंसे पुरुषम् जगत् शिवे नवचसा त्वा गिरिशाच्छावदामसि यथा नः सर्वमिज्जगद यक्ष्मकुम् सुमना असत् अध्यवोच दधिभक्ता प्रथमो दैव्याभिषक् अहीगुश्च सर्वाञ्जम्भयम् सर्वाश्च यातु धान्यः असंयस्ताम्र अरुण उत बभ्रुः सुमङ्गलः ये चेमाकुम् रुद्रा अभितो दिक्षुश्रिता सहस्रशो वैशाकुम् हेण ईमहे असंयाभसर्पतिनीलग्रीभो विलोहितः उदैनम् गोपा अदृशन्नदृशन्मदहार्यः उदैनम् विश्वा भूतानि सदृष्टो मृडयादिनः नमो अस्तु नीलग्रीवाय सहस्राक्षाय मीढुषे अधो ये अस्य सत्त्वानो हन्तेभ्यो करम् नमः प्रमञ्जधन्वनस्त्वमुभयोरात्मयोर्जाम् याश्च देहस्त इषवः पराता भगवो बपा अवदत्यधनुस्वरम् सहस्राक्षसिते शुधे निशील्यशील्यानाम् मुखा शिवो नः सुमना भव विज्यन्धनः कपद्दिनो विशल्यो बाणवागुम् पुता अनेशन्धस्येषव आभुरस्य निषङ्गधिः या ते हेतिर्मेढुष्टमहस्ते बभूवते धनुः तयास्मानुनिष्कतस्त्वमयक्ष्मया परिभुजा नमस्ते अस्मायुधायानादताय धृष्णवे उभाभ्यामुदते नमो बाहुभ्याम् नवधन्वने परिते धन्वनो हेतिरस्मान् वृणक्तुभिश्वतः अधोयैषुधिः स्वभारे अस्मन्निधेहितम् नमस्ते अस्तु भगवन् विश्वेश्वराय महादेवाय त्र्यम्बकाय त्रिपुरान्तकाय त्रिकाग्निकालाय कालाग्निरुद्राय नीलकण्ठाय मृत्युञ्जयाय सर्वेश्वराय सदाशिवाय श्रीमन्महादेवाय नमः नमो हिरण्यवाहवे सेनान्ये दिशाञ्च पतये नमो नमो वृक्षेभ्यो हरिकेशेभ्यः पशूनाम् पतये नमो नमः सस्मिञ्जराय श्रीमते पथीनाम् पतये नमो नमो बभ्रुशाय विव्याधिनेन्नानाम् पतये नमो नमो हरिकेशायोपवीतिने पुष्टानाम् पतये नमो नमो भवस्येत्यैकताम् पतये नमो नमो रुद्राय दकाविने क्षेत्राणाम् पतये नमो नमः सूताय हन्ताय वनानाम् पतये नमो नमो रोहिताय कपतये वृक्षाणाम् पतये नमो नमो मन्त्रिणे वाणिजाय कक्षाणाम् पतये नमो नमो भवन्तये वारिवत्कृताय औषधीनाम् पतये नमो नम उच्चैर्घोषाय कन्दयते पत्तीनाम् पतये नमो नमः कृत्स्रवीताय धावते सत्त्वनाम् पतये नमः नमः सहमानाय निव्याधिन आव्याधिनीनाम् पतये नमो नमः ककुभाय निषङ्गिणे सेनानाम् पतये नमो नमो निषङ्गिण युधिवते तस्कराणाम् पतये नमो नमो वञ्चते परिवञ्चते सायूनाम् पतये नमो नमो निजेदवे परिचरायारण्यानाम् पतये नमो नमः श्रुकामिभ्यो जिघागुम् सद्भ्योमुष्णताम् पतये नमो नमो मध्यानक्तञ्जरभ्यप्रकृन्दानाम् पतये नमो नम उष्णीषिणे गिरिजराय कुलुञ्चानाम् पतये नमो नम विश्वमध्योरन्वामिभ्यश्च वो नमो नम आतङ्गानेभ्यः प्रतितधानेभ्यश्च वो नमो नम आयच्छद्भ्यो विसृजभ्यश्च वो नमो नमोऽस्यभ्यो विद्यद्भ्यश्च वो नमो नम आदिरेभ्यश्च यानेभ्यश्च वो नमो नम स्वपद्भ्यो जाग्रभ्यश्च वो नमो नमस्तिष्ठद्भ्यो धावद्भ्यश्च वो नमो नमः सभाभ्यः सभावतिभ्यश्च वो नमो नमो अश्वेभ्योऽश्वपदिभ्यश्च वो नमः नम आव्याधिनेभ्यो विविध्यन्तेभ्यश्च वो नमो नम उगणाभ्यस्तृगुम्भतेभ्यश्च वो नमो नम वृत्सेभ्यो वृत्सपदिभ्यश्च वो नमो नमो व्रातेभ्यो व्रातपदिभ्यश्च वो नमो नमो गणेभ्यो गणपदिभ्यश्च वो नमो नमो विरूपेभ्यो विश्वरूपेभ्यश्च वो नमो नमो महद्भ्यः क्षुल्लकेभ्यश्च वो नमो नमो रथिभ्यो रथेभ्यश्च वो नमो नमो रथेभ्यो रथपदिभ्यश्च वो नमो नमस्येनाभ्यश्चेनानिभ्यश्च वो नमो नमः क्षत्रुभ्यः सङ्ग्रहेतृभ्यश्च वो नमो नमस्तक्षभ्योऽर्धकारेभ्यश्च वो नमो नमः कुलालेभ्यः कर्मारेभ्यश्च वो नमो नमः पुञ्जिष्ठेभ्यो निधारेभ्यश्च वो नमो नम इषकृद्भ्यो धन्वकृद्भ्यश्च वो नमो नमो मृगयुभ्यश्वरिभ्यश्च वो नमो नमस्य भ्यश्च वो नमः नमो भवाय च रुद्राय च नमः शर्वाय च पशुपतये च नमो नीलग्रीवाय च श्रीकण्ठाय च नमः प्रवर्तिने च व्युक्तकेशाय च नमः सहस्राक्षाय च शतधन्वने च नमो गिरिशाय च शिभिष्टाय च नमो मेधुष्टमाय च शुमरे च नमो ह्रस्वाय च वामनाय च नमो बृहते च वर्षीयते च नमो वृद्धाय च संवृधने च नमो अग्र्याय च प्रथमाय च नम आशवे चाजिराय च नमः शीघ्रियाय च शीभ्याय च नम ऊन्याय चावस्वन्याय च नमः स्रोतस्याय च दीप्याय च नमो ज्येष्ठाय च कनिष्ठाय च नमः पूर्वजाय चापरजाय च नमो मध्यमाय चापगल्भाय च नमो जघन्याय च बुद्ध्याय च नमः श्रोभ्याय च प्रतिसर्याय च नमो याम्याय च क्षेम्याय च नम ऊर्भर्याय च खल्याय च नमः श्रोत्याय चापधान्याय च नमो वन्याय च कक्षाय च नमः श्रवाय च प्रतिश्रवाय च नमः आशुषेणाय चाशुरथाय च नमः शूराय च चामभिन्नते च नमो भर्मिले च वरोधिले च नमो बिल्मिले च कपटिले च नमः श्रुताय च श्रुतसेनाय च नमो दुन्दुभ्याय च हनन्याय च नमो धृष्णवे च प्रमृषाय च नमो धूताय च प्रहिताय च नमो निषङ्गिले च शुधिमते च नमस्तीक्ष्णेधवेनायुधे च नमः स्वायुधाय च सुधन्वने च नमः श्रुत्याय च पच्छाय च नमः काट्याय च नीत्याय च नमः सूद्याय च सरस्याय च नमो नाद्याय च वैशन्ताय च नमः कूप्याय च भट्याय च नमो वर्ष्याय च भर्ष्याय च नमो मेघ्याय च विद्युत्याय च नम ईद्रियाय च तप्याय च नमो वात्याय च रेश्म्याय च नमो वास्तव्याय च वास्तुराय च नमः सोमाय च रुद्राय च नमस्ताम्राय चारुणाय च नमः शृङ्गाय च पशुपतये च नमः उग्राय च भीमाय च नमो अग्रे वधाय च दूरे वधाय च नमो अन्ध्रे च हनीयसे च नमो वृक्षेभ्यो हरिवेषेभ्यो नमस्ताराय नमः शम्भवे च मयोभवे च नमः शङ्कराय च मयस्कराय च नमः शिवाय च शिवतराय च नमस्तीर्थ्याय च कूर्याय च नमः पार्य य च भार्याय च नमः प्रतरणाय चोत्तरणाय च नमः आदाद्याय चालाद्याय च नमः शिष्प्याय च भेण्याय च नमः शिखत्याय च प्रवाह्याय च नम हिरण्याय च प्रवध्याय च नमः कृगंशिराय च क्षयणाय च नमः कबर्दिने च पुलस्तये च नमो गोष्ठ्याय च गुह्याय च नमः स्थल्प्याय च गेह्याय च नमः कात्याय च गह्वरेष्ठाय च नमो आर्तलय्याय च निवेष्ट्याय च नमः पागन्धव्याय च रजस्याय च नमः शुष्क्याय च हरिद्राय च नमो लोप्याय च लभ्याय च नमः ऊर्व्याय च शून्याय च नमः पन्याय वन्नसज्जाय च नमो वकरमाणाय चाभिघ्नते च नमः आख्यतते च प्रक्षितते च नमो वक्षिरिकेभ्यो देवानागम् हृदयेभ्यो नमो विक्षीणकेभ्यो नमो विजन्धत्केभ्यो नमः आनिर्हतेभ्यो नमः आमीवर्गेभ्यः द्रापे अन्धसत्पते दरिद्रन्नीललोहिता येषाम् वरुषाणामेषाम् वशूनाम् माधेर्मा रोमो येषाम् किञ्चन मम याते रुद्रशिवातनो शिवाभिश्वाह भेषजी शिवा रुद्रस्य भेषजी तया नामृजीवसे इमागुम् रुद्राय तमसेकभर्जिने क्षयद्वीराय प्रभामहे मतिम् यथा नः शमसद्विपदे चतुष्पदे विश्वम् पुष्टम् ग्रामे अस्मिन्ननातरम् वृणानारुद्रोतनामयस्कृधिक्षयद्वीराय नमसा विधेमते यच्छञ्जयाश्च मनुरायजेऽभिना तदस्यामतवरुद्रप्रणीतौ मानो महान्तमुतमान अर्भकम् मानमुक्षणन्तमुतमानमुक्षितम् मानोधेः पितरम् वोतमातरम् प्रियामानस्तनुवो रुद्ररीरिषः मानसोकेतनये मान आयुषिमानो गोषुमानो अस्येषुवीरिषः वीरान्मानो रुद्रभाविदोमधेर्हविष्मन्तो नमसा विधेमते आराप्ते गोघ्न उत पूरुषघ्ने क्षयद्वीराय सुम्रमस्मेते अस्तु रक्षाजनाधिजदेव ब्रूह्यथा च नः शर्म यच्छद्विवर्हाः स्तुहि श्रुतम् कर्तसदम् युवानम् मृगन्न भीममुपहर्तृमुग्रम् मृडाय हित्रे रुद्रस्तवान अन्यन्ते अस्मन्निव बन्धुदेनाः परिणो रुद्रस्य हेतुर्वृणक्त्वपरित्वेषस्य दुर्मतिरघायोः अवस्थिरा मघवध्यस्वनुश्वमेढ्वस्तोकायतनयाय मृडया मेढुष्टमशिवतमशिव नः सुमना भव परमे वृक्ष आयुधम् निधाय कृत्यम् वसानाजनपि नाकम् बिभ्रदागैः विकिरितविलोहित नमस्ते अस्तु भगवः यास्ते सहस्रगुम् हेतयोऽन्यमस्मन्निपपन्तुताः सहस्राणि सहस्रधा बाहुवास्तव हेतयः तासामीशा न भगवः पराचीनामुखाकृधि
सहस्राणि सहस्रजो ये रुद्राधिभूम्याम् तेषाकम् सहस्रजो जने मधन्वानितम् मसि अस्मिन्महत्यन्धवेऽन्तरिक्षे भव अधि नीलग्रीवास्य दिकण्ठाः सर्वा अधः क्षमाचराः नीलग्रीवास्य दिकण्ठादिवकम् रुद्रागुवश्रिताः ये वृक्षेषु सस्मिञ्जरा नीलग्रीवा विलोहिताः ये भूतानामधिपतया विशिधासः कभर्दिनः ये अन्येषु विविध्यन्ति पात्रेषु पिबतो जनान् ये पथाम्बधिरक्षय ऐलभृता यव्युधः ये तीर्थानि प्रजलन्ति श्रावन्तानि शङ्गिणः य एतावन्तश्च भूयागुंसश्च दिशो रुद्राविदस्थिरे तेषागुम् सहस्रयो जनेवधन्वानिदन्वसि नमो रुद्रेभ्यो ये पृथिव्याम् येऽन्तरिक्षे ये दिवि येषामह्नम् वातो वर्षमिषभस्तेभ्यो दश प्राचेर्दश दक्षिणा दश प्रदेचेर्दशो देचेर्दशोऽर्धास्तेभ्यो नमस्ते नो मृळयम् ददेयम् विश्वायश्च नोद्वेष्टितम् भोजम् भेदधामि वयम् वकञ्जयामहे सुगन्धिम् पुष्टिवर्धनम् उर्वारुकमिव बन्धनान् भृत्योर्मुक्षीयमामृतात् यो रुद्रो अग्नौ यो अप्सु य ओषधीषु यो रुद्रो विश्वा भुवना विवेश तस्मै रुद्राय नमो अस्तु एते सहस्रमयुतम् पाशामृत्योमर्त्याय हन्तवे तान् यज्ञस्य मायया सर्वानव यजामहे मृत्यभे स्वाहा मृत्यभे स्वाहा प्राणानाम् ग्रन्थिरसि रुद्रो माविशान्तकः तेनान्नेनाप्यायस्व नमो रुद्राय विष्णवे मृत्युर्मे पाहि ॐ शान्तिश्शान्ति शान्तिः ॐ विष्णो दजाषसेवावर्धन्तु लाङ्गिरः जुम्नैर्वाजेभिरागतम् वाजश्च मे प्रसवश्च मे प्रयतिश्च मे प्रसिदिश्च मे धीतिश्च मे क्रतुश्च मे स्वरश्च मे श्लोकश्च मे श्रावश्च मे श्रुतिश्च मे ज्योतिश्च मे शुभश्च मे प्राणश्च मे बाणश्च मे ज्ञानश्च मे सुश्च मे चित्तम् च माधीतम् च मे वाच्य मे मनश्च मे चक्षुश्च मे श्रोत्रम् च मे दक्षश्च मे बलम् च मोजश्च मे सहश्च मायुश्च मे जरा च आत्मा च मे धनोश्च मे जन्म च मे जमेऽङ्गानि च मे स्थानि च मे भरोगंश च मे शरीराणि च मे ज्येष्ठम् च महाधिपत्यम् च मे मन्यश्च मे भामश्च मे मश्च मेऽम्भश्च मे देवा च मे महिमा च मे वरिमा च मे प्रथिमा च मे भर्ष्मा च मे द्राघुया च मे वृद्धम् च मे वृद्धिश्च मे भक्तिम् च मे श्रद्धा च मे जगच्च मे धनम् च मे वशश्च मे तुषश्च मे क्रीडा च मे बोधश्च मे जातम् च मे जनिष्यमाणम् च मे सूक्तम् च मे सुहृदम् च मे वित्तम् च मे वेद्यम् च मे भूतम् च मे भविष्यत् मे सुखम् च मे सुपथम् च मर्धम् च मर्धिश्च मे क्लुप्तम् च मे क्लुप्तिश्च मे मतिश्च मे सुमतिश्च मे सञ्ज मे मयश्च मे प्रियम् च मेऽनुकामश्च मे कामश्च मे सौमनसश्च मे भद्रम् च मे श्रेयश्च मे वश्यश्च मे यशश्च मे भगश्च मे द्रविणम् च मे यन्ता च मे धत्ता च मे क्षेमश्च मे धृतिश्च मे विश्वम् च मे महश्च मे संविच्च मे ज्ञात्रम् च मे सोश्च मे प्रसोश्च मे क्षीरम् च मे लयश्च मरुतम् च मे मृदम् च मे यक्ष्मम् च मे रामयश्च मे जीवातुश्च मे दीर्घायुत्वम् च मे न मित्रम् च मे भयम् च मे सुखम् च मे शयनम् च मे सोषा च मे सुदिनम् च मे ऊर्च मे सौनृता च मे पयश्च मे रसश्च मे घृतम् च मे मधु च मे सद्भिश्च मे समेतिश्च मे कृषिश्च मे वृष्टिश्च मे जैत्रम् च मौद्भिर्जम् च मे रजश्च मे राजश्च मे पुष्टम् च मे पुष्टिश्च मे विभुज मे प्रभुज मे बहुज मे भोजश्च मे पूर्णम् च मे पूर्णतरम् च मे क्षयश्च मे कूजवाश्च मे अन्नम् च मे क्षुश्च मे व्रीहयश्च मे जवाश्च मे माषाश्च मे तिलाश्च मे मुद्राश्च मे खल्वाश्च मे गोधूमा ఆహాశ్చ మే మధురాహాశ్చ మే ప్రియంగవశ్చ మే నవశ్చ మే శ్యామాకాశ్చ మే నీవారాశ్చ మే అస్మాచ మే మృత్తికాచ మే గరయశ్చ మే పర్వతాశ్చ మే శిఖరాశ్చ మే వనస్పతయశ్చ మే హిరణ్యం చ మేయశ్చ మే శీలం చ మే త్రపశ్చ మే శ్యామం చ మే లోహం చ మే అగ్నిశ్చ ఆపశ్చ మే వేరుధశ్చ మోషధయశ్చ మే కృష్ణభచ్చం చ మే కృష్ణభచ్చం చ మే గ్రామ్యాశ్చ మే పశవ ఆరణ్యాశ్చ యజ్ఞేన కల్పంతాం విత్తం చ మే విత్తిశ్చ మే భూతం చ మే భూతిశ్చ మే వసు చ మే వసతిశ్చ మే కమ్మ చ మే శక్తిశ్చ మే అర్ధశ్చ మయేమశ్చ మయితిశ్చ మే గతిశ్చ మే అగ్నిశ్చ మహీంద్రశ్చ మే సోమశ్చ మహీంద్రశ్చ మే సమితా చ మహీంద్రశ్చ మే సరస్వతీ చ మహీంద్రశ్చ మే పూషా చ మహీంద్రశ్చ మే బృహస్పతిశ్చ మహీంద్రశ్చ మే హిత్రశ్చ మహీంద్రశ్చ మే వరుణశ్చ మహీంద్రశ్చ మే త్వష్టా చ మహీంద్రశ్చ మే ధాతా చ మహీంద్రశ్చ మే విష్ణశ్చ మహీంద్రశ్చ మే శ్యనౌ చ మహీంద్రశ్చ మే మరుతశ్చ మహీంద్రశ్చ మే విశ్వే చ మే దేవా ఇంద్రశ్చ మే పృథివీ చ మహీంద్రశ్చ మే అంతరిక్షం చ మహీంద్రశ్చ మే జ్యోశ్చ మహీంద్రశ్చ మే దిశశ్చ మహీంద్రశ్చ మే మూర్ధా చ మహీంద్రశ్చ మే ప్రజాపతిశ్చ మహీంద్రశ్చ మే అగుంశుశ్చ మే రశ్మిశ్చ మేదాభ్యశ్చ మేధిపతిశ్చ ఉపాగుంశుశ్చ మేంద్రయామశ్చ మహీంద్రమాయమశ్చ మే మైత్రావరుణశ్చ మాశ్వినశ్చ మే ప్రస్థానశ్చ మే శుక్రశ్చ మే మంధీచ మాగ్రజనశ్చ మే వైశ్వదేవశ్చ మే ధృమశ్చ మే వైశ్వానరశ్చ మరుగ్రహాశ్చ మే దిగ్రాహ్యాశ్చ మహీంద్రాగ్నశ్చ మే వైశ్వదేవశ్చ మే మరుత్వదీయాశ్చ మే మహేంద్రశ్చ ఆదిత్యశ్చ మే సావిత్ర మే సారస్వతశ్చ మే పౌష్ణశ్చ మే పాత్రీపదశ్చ మే హారీయోజనశ్చ మే యుద్ధశ్చ మే బర్హిశ్చ మే వేదిశ్చ మే ధిష్ణయాశ్చ మే సృజశ్చ మే జమగాశ్చ మే గ్రావాణశ్చ మే స్వరవశ్చ పరవాశ్చ మే ధిషమణే చ మే ద్రోణకలశ్చ మే వాయువ్యాని చ మే భూతభృత్యమ ఆధవనీయశ్చ మహాగ్నేయర్ధం చ మే హవిర్ధానం చ మే గృహాశ్చ మే సదశ్చ మే పురోణాశాశ్చ మే వజనాశ్చ మే వృధశ్చ మే స్వగాకారశ్చ మే అగ్నిశ్చ మే ఘర్మశ్చ మేర్కశ్చ మే సూర్యశ్చ మే ప్రాణశ్చ మే స్వమేధశ్చ మే పృథివీ చ మే దిదిశ్చ మే దిదిశ్చ మే జ్యోశ్చ మే శుక్వరీ రంగులయోగిషశ్చ మే యజ్ఞేన కల్పంతామృత్య మే సామ చ మే స్తోమశ్చ మే యుజుశ్చ మే దీక్షా చ మే తపశ్చ మృతుశ్చ మే వ్రతం చ మే హోరాత్రయోర్వృష్యా బృహద్రధన్వరే చ మే యజ్ఞేన కల్పేతామ్ గర్భాశ్చ మే వత్సాశ్చ మే త్రియవిశ్చ మే త్రియవీచ మే దిత్యవాచ మే దిత్యౌహీచ మే పుంజావిశ్చ మే పంచావీచ మే త్రివత్సశ్చ మే త్రివత్సాచ మే తుర్యవాచ మే తుర్యౌహీచ మే పష్టవాచ మే పష్టౌహీచ మముక్షాచ మే వశాచ మషభశ్చ మే వేహశ్చ మే లడ్వాంచ మే ధేనుశ్చ మహాయజ్ఞేన కల్పతాం ప్రాణయజ్ఞేన కల్పతాం అపానయజ్ఞేన కల్పతాం జ్ఞానయజ్ఞేన కల్పతాం చక్షుర్యజ్ఞేన కల్పతాం శ్రోత్రం యజ్ఞేన కల్పతాం మనోయజ్ఞేన కల్పతాం వాగ్యజ్ఞేన కల్పతాం మహాత్మాయజ్ఞేన కల్పతాం యజ్ఞోయజ్ఞేన కల్పతాం ఏకాచ మే తిస్రస్య మే పంచ చ మే సప్త చ మే నవ చ మేకాదశ చ మే త్రయోదశ చ మే పంచదశ చ మే సప్తదశ చ మే నవదశ చ మేకవింశతిశ్చ మే త్రయోవింశతిశ్చ మే పంచవింశతిశ్చ మే సప్తవింశతిశ్చ మే నవవింశతిశ్చ మేకత్రిగుంశచ్చ మే త్రయస్త్రిగుంశచ్చ మే చతస్రస్య మే చతుర్థ మే ద్వాదశ చ మే షోడశ చ మే వింశతిశ్చ మే చతుర్వింశతిశ్చ మే షావింశతిశ్చ మే ద్వాత్రిగుంశచ్చ మే షట్రిగుంశ మే చరింశ్చ మే చతుశ్చరింశ్చ మేష్టాచరింశ్చ మే వాజశ్చ ప్రథమశ్చాపిశ్చక్రతుశ్చ మూర్ధాయశ్చాంద్రాయశ్చాంద్రశ్చ భువనశ్చ భువనశ్చాధిపతిశ్చ ఇరాదేవహోర్మనర్యజ్ఞనేర్బృహస్పతిర్థామదానిషద్విశ్వే దేవాస్వోగ్రవాజ ప్రతిర్మాయుంధేర్మధుమనిష్యే మధు జనిష్యే మధుమక్ష్యామి మధుమనిష్యామి మధుమదేం దేవేభ్యోవాచముద్యాగం శుశ్రూషేణ్యాం మనుష్యేభ్యస్వం మా దేవాంతు శోభాయై పితరో నమో ఓం శాంతి శాంతి శాంతిః. ఓం తత్సంజోరావృణీమహే గాతుం యజ్ఞాయ గా दातुम् यज्ञपतये दैवी स्वस्तिरस्पुनः स्वस्तिर्मानुषेभ्यः ऊर्ध्वम् जिगादुभेषजम् शृणास्त्वद्विपदे सञ्जतष्पदे ॐ श्याम् दिश्याम् दिश्याम्भिः सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपाद सभूमिम् विश्वतो भृत्वा अत्यतिष्ठद्दशाङ्गुलम् पुरुष एवेदकम् सर्वम् यद्भूतम् यच्च भव्यम् उदामृतत्वस्येशानः विदम्भेदातिरोहति एतावारस्य महिमा अतोज्यायागुश्च पूरुषः पादोऽस्य विश्वभूतानि त्रिपादस्यामृतम् दिवि त्रिपादोर्ध्वबुदैत्पुरुषः पादोऽस्येहा भवात्पुनः ततो विश्वम् व्यक्रामद शासनानशने अभि तस्माद्विराडजायत विराजो अधिपुरुषः स जातोऽत्यरिच्यत पश्चाद्भूमिमधोपुरः यत्पुरुषेण हविषा देवायज्ञमतम्बत वसन्तो अस्यासीदाज्यम् ग्रीष्म यद्म शरद्धभिः सप्तास्यासम्परिधयः त्रिसप्तसमिधः कृताः देवायज्ञम् तम् वानाः अवध्नम् पुरुषम् वशुम् तञ्जज्ञम् बर्हिषि प्रोक्षन् पुरुषम् जातमग्रतः तेन देवा अयजन्त साध्यार्षयश्चये तस्माद्यज्ञात् सर्वभूतः सम्भृतम् राज्यम् अशोकस्तागश्चक्रे वायव्यान् आरण्यान् ग्राम्याश्चये